गीता साधक संजीवनी दूसरा अध्याय श्लोक 62 से अध्याय की समाप्ति तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
ध्यायतो विषयान् पंसः संगस्तेषु उपजायते संगात् संजायते कामः कामात् क्रोधोऽभिजायते क्रोधाद्भवति सम्मोहः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति रागद्वेषवियुक्तैस्तु विषयानेन्द्रियैः शरन् आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्नचेतसो ह्यासु बुद्धेः पर्यवतिष्ठते नास्ति बुद्धिर्युक्तस्य न चायुक्तस्य भावना न चाभावयतः शान्ति रशान्तस्य कुतः सुखम् इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते तदस्य हरति प्रज्ञां वायोर्नावमिवाम्भसि तस्माद्यस्य महाबाहो निगृहीतानि सर्वश इन्द्रियाणेन्द्रियाधेव्य स्वस्य प्रज्ञा प्रतिष्ठिता यानि सा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जागर्ति भूतानि सा निशा पश्यतो ने आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् तद्वत् कामायं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकवि विहाय कामान्य सर्वान् उमांश्चरति निःस्पृहः निर्ममो निरहङ्कार स शान्तिमधिगच्छति एषा ब्राह्मे स्थिति पार्थ नैनां प्राप्य विमोह्यते स्थित्वा श्यामान्तकालेऽपि ब्रह्मनिर्वाणमृच्छति एषा ब्राह्मे स्थिति पार्थ नैनां प्राप्य विमोह्यते स्थित्वा श्यामान्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ब्रह्मनिर्वाणमृच्छति। ॐ तत्सत्। శ్రీమద్గీతాశ్లోకేశూర్ణం విద్యాశ్రీకృష్ణవాది సాంఖ్యోగ్య
వసుదేవసుతారూరమాగనం దేవకీ పరమానందం